नमस्सर्वेभ्यः अद्य तियन्तप्रक्रियायां द्विषष्टितमः वर्गः मेमासस्य अष्टमः दिनाङ्कः येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् अस्मिन् वर्गे सार्वधातुकखण्डे तिङन्तप्रक्रियायाः सार्वधातुकखण्डे अधीतस्य सर्वस्य पुनरावर्तनं कुर्वन्तः स्मः. तत्र प्रक्रियायाम् अयं क्रमः प्रायेण आश्रीयते. आदौ मूलधातुः सानुबन्धः सार्थः धातुपाठात् स्वीक्रियते. ततः तत्र इत्सम्यकवर्णानाम् अभिज्ञानं तेषां लोपश्च क्रियते. ततः यानि निर्निमित्तानि प्राकृतिकानि कार्याणि तानि क्रियन्ते. धात्वादेशसः णोनः इदितोनुं धातोः उपधायाञ्च इति चत्वारि सामान्यानि प्राकृतिककार्याणि. केषाञ्चन धातूनां सनादयः प्रत्ययाः विधीयन्ते, तान्यपि अत्र अन्तर्भवन्ति. एतेषु कृतेषु लकारः योज्यते. विवक्षाम् आश्रित्य कश्चित् लकारः सर्वेषु लकारेषु ल इत्येव शिष्यते. अन्ये वर्णाः इत्संज्ञया लोपं प्राप्नुवन्ति. ततः लावस्थायाम् अट् इति पक्षे लङ् लुङ् लृङ् इत्येतेषु त्रिषु लकारेषु धातोः अडागमः आडागमो वा क्रियते. लुङ् लङ् लृङ् षडुदात्तः आडदादीनाम् इति सूत्रद्वयमाश्रित्य. ततः लकारस्य स्थाने तिप्तस्थि इति सूत्रेण एकः प्रत्ययः आदेशः भवति. पुनः विवक्षामाश्रित्य यस्य पुरुषस्य वचनस्य वा विवक्षा अस्ति तदाश्रित्य एकः प्रत्ययः क्रियते. अयं च सार्वधातुकसम्यकः किञ्चित् सार्वधातुकम् इति. कृते विकरणप्रत्ययः भवति. अत्र सार्वधातुकप्रक्रियायां सार्वधातुकलकारेषु गणनिमित्तः विकरणः भवति. धातोः गणम् आश्रित्य विकरणप्रत्ययः क्रियते. I think we stopped here, right? When we did the vikarana.
Yeah, Swamiji, that's right. And I wanted to ask you a question. Is that okay?
Yes, please.
On those that list. Could you go back to that list just so I could see it? Because I hope it's appropriate, but I just was it's been daunting a little bit to completely understand the meaning of some of the last few in that list, like. The list that you had there in the turquoise color. And
are you not able to see it? I mean, I should be.
I don't see it right now. I see something else, right? I see Gana and Vikarana and all that list.
Okay.
But where it says, Pratyaya Nirmanam or something like that, I think it is. And
oh, you mean the initial list?
Yeah, that's the one.
Yes.
Yeah, here. So when we get down to after Vikarana, we have the Vikarana Nimittam Angakaryam. And I'm understanding that because of the Vikarana, the Anga gets changed.
Yes.
And then, okay, so then we have the Pratyaya Nirmanam. So that's where the Pratyaya gets changed?
Yes, because depending on the Anga, because if the Anga is Adanta, the Pratyayas are different. If the Anga is not Adanta, the Pratyayas are different. So we do the Adesha for the Pratyaya to get the final Pratyaya.
And finally, we have the Pratyaya Nirman,
Pratyaya Nimittam Angakaryam.
Nimittam.
Yes.
Angakaryam. So because of the Pratyaya, the Angam gets changed.
Yes.
Yeah, okay, then I have it. Okay, thank you.
So there is a dependency there. So first, yeah, the Dhatu gets changed to the Anga. Yeah, that's what we are going to do today. So Vikarane Krite Idanim Trayaha Bhagaha Santi Dhatuhu Vikaranaha Ting Pratyayaha Yatha Bhu A Say Ti. So Adau Vikaranam Ashritya Dhatoho Kanichana Karyani Bhavanti Yatha Atra Gunaha Bhu A Itisthite Vikarana Pratyayam Ashritya Dhatoho Gunaha Bho A Bhava. So I Idam Angam. So asmin ange siddhe dhatoho vikaranasya cha yojane krute yadangam asti tadangam ashritya pratyayasya nirmanam kriyate etohi bhava iti adantam adantadangat parasya pratyayasya kanichana karyani bhavanti ataha tat tani karyani kriyante pratyayasya nirmanam tiptasthi sarveshu lakareshu ete ashtadasheva pratyayaha kriyante kintu pratilakaram Pratidhatu rupam vidyate tatra rupasya vedasya karanam bhavati anyani sutrani pratyasya nirmanam kim pratyayam shruyate iti tatrapi karyani santi tani karyani karaniyani tataha tam pratyayam siddham pratyayam ashritya yatha langlakare ti iti pratyayah asti tatra itascha ityanena ikarasya lope tu iti pratyayah siddhaha idanim tam pratyayam ashritya yadanga karyam bhavati yatha gunaha asunu tu asunu tu ityasti cet tatra ting pratyayam ashritya gunaha kriyate sarvadhatuka ardhadhatukayoho iti asunot ityatra ataha tani karyani karaniyani sarveshu angakaryeshu kriteshu ante sandhi karyani kriyante tataha tripadi karyani kriyante. So they are like miscellaneous, you just fill up the prakriya or you wrap up the prakriya with sandhikarya and tripadikaryas. Mukhyataha tatra jnatavyam asti vikarana nimittam angakaryam pratyaya nimittam angakaryam tatraiva dhatunam madhye yaha bhedaha saha jnayate. So the difference among the dhatus themselves are seen at these two stages. So the rest are all is like a common factor. Pratyaya nirmanam api Tredha bhavati yatha yadi angam adantam va anadantam va abhyastam va ityashritya tredha ataha tatra ekavaram adhiyate chet tena bhavati kintu vikarana nimittam yadanga karyam tatha pratyaya nimittam yadanga karyam tatra dhyanam datavyam tatraiva that is where the dhatus diverge. Okay, so we have now learnt the convergence. They converge with the vikarana. Okay, Vikarana is the greatest unifier because it brings all dhatus to one common table by adding, giving them the same anta. Okay, that is what the Vikarana does. So even though the dhatus vary widely, finally you end up with one anta, whichever is for that gana. So now the divergence among the dhatus themselves is caused by specific sutras which act at these two levels. अतः विकरण निमित्त अंगकार्यम तथा प्रत्यय निमित्त अंगकार्यम इत्यत्रैव बहूनि सूत्राणि भवन्ति तत्तद् धातुमाश्रित्य यानि विशिष्टानि कार्याणि तानि ज्ञातव्यानि भवन्ति इदानीं एतावत् पर्यन्तम् अधीतं के विकरणाः भवन्ति विकरणेषपि सामान्य विकरणाः सन्ति तत्तद् गणस्य तथैव विशेष विकरणाः केषाञ्चन धातूनां विशिष्य विकरणः विधीयते यथा भ्राशादीनां धातूनां श्यन् विकल्पेन विधीयते अतः शप् श्यन् इति उभयोः रूपं भवति श्रु धातोः श्नु विकरणः नित्यं विधीयते अतः सर्वदा सः श्नु प्रत्ययान्तः एव भवति एवं विकरणस्य विशेषाः भवन्ति तदपि ज्ञातव्यम् अस्माभिः गतसप्ताहे ज्ञातम् इदानीं विकरणनिमित्तानि कार्याणि विकरणप्रत्ययम् आश्रित्य यानि कार्याणि भवन्ति तानि ज्ञातव्यानि तत्रादौ औत्सर्गिककार्याणि सामान्यतः तस्मिन् विकरणे परे किं भवति भादिगणे कर्तरि शप् इत्यनेन शप् विकरणः स च पित् पित्वात् यत्र यत्र पित् प्रत्ययः भवति तत्र औत्सर्गिकं कार्यं भवति गुणः सो पित् आल्वेज़ गवर्न्स् गुण. So, pit is actually easy because the divergence is less. यत्र पित् प्रत्ययः भवति तत्र सामान्यं कार्यं भवति सार्वधातु इगन्तस्य अङ्गस्य सार्वधातुक अर्धधातुकयोरिति लघूपधानाम् अङ्गानां पुगन्तलघूपधस्य च इत्यनेन गुणः भवति सामान्यं तदेव कार्यम् अदादिगणे विकरणः नास्ति अतः सामान्यम् एतदेव कार्यम् इति विकरणनिमित्तं कार्यम् इति किमपि न भवति जुहोत्यादिगणे कर्तरि शप् इत्यनेन शप् क्रियते जुहोत्यादिभ्यश्लुः इत्यनेन तस्य लोपः श्लौ कृते यद्यपि प्रत्ययः लुप्तः तथापि श्लौ इति सूत्रेण सर्वेषां धातूनां द्वित्वं भवति अतः सः सामान्यांशः जुहोत्यादिगणे अस्ति अतः श्लौ इति सूत्रेण द्वित्वं भवति द्वित्वस्य नियमाः स्मर्तव्याः एकाचो द्वे प्रथमस्य अजादेर्द्वितीयस्य इत्यादि द्वित्वे कृते अभ्यासकार्याणि भवन्ति पूर्वोऽभ्यासः इत्यनेन द्वित्वे कृते पूर्वतनभागस्य अभ्याससंज्ञा भवति अभ्याससंज्ञायां कानिचन कार्याणि सन्ति तत्र सामान्यानि अभ्यासकार्याणि धातुम् अनाश्रित्य नाट् स्पेसिफिक् टु एनी पर्टिक्युलर् धातु सर्वेषां धातूनां यथावसरं यथानिमित्तम् एतानि कार्याणि भवन्ति हलादिशेषः अभ्यासस्य आदिः हल् शिष्यते अन्ये हलः लुप्यन्ते ह्रस्वः यदि अभ्यासे दीर्घस्वरः अस्ति तर्हि ह्रस्वः भवति कुहोश्चुः अभ्यासे स्थितानां कवर्गाक्षराणां हकारस्य च छवर्गः भवति अतः हन् इत्यत्र घन् जघान झ इति चवर्गः झ आदेशः भवति एवं कवर्गाक्षराणां चवर्गाक्षर गम् इत्यत्र जगम् गकारस्य स्थाने जकारः इत्येवम् आदेशाः भवन्ति अभ्यासे चर् चर् इत्यनेन अल्पप्राणवर्णः यदि महाप्राणवर्णः अस्ति तर्हि अल्पप्राणः यथा भू इत्यस्य बभू द्वित्वे कृते भू भू इति भवति ततः बभू इति भवति एवम् उरत् अभ्यासे यदि ऋकारः अस्ति तर्हि तस्य अकारादेशः भवति इत्येतानि सामान्यानि अभ्यासकार्याणि न केवलम् अत्र लिट्लकारे सर्वत्र स्मर्तव्यम् इवन् इन् लिट्लकार दीस् सूत्रस् विल् बि वेरि यूस्फुल् आर् इन् सन् आर् इन् यङ्ग् यत्र यत्र द्वित्वं भवति तत्र एतानि सामान्यानि अभ्यासकार्याणि भवन्ति अयं जुहोत्यादिगणस्य औत्सर्गिकं कार्यं विकरणे परे विकरणप्रत्यये परे यत् कार्यं तस्य विषये चिन्त्यमानमस्ति ततः दिवादिगणे दिवादिगणे विकरणः अस्ति ष्यन् ष्यनि य इति शिष्यते अयं हलादिः अपित् सार्वधातुकः सो यत्र पित्वं नास्ति अपित् तर्हि सार्वधातुकम् अपित् इत्यनेन ङिद्वद्भावः ङिद्वद्भावे प्रथमं कार्यं भवति ङिति च इति गुणनिषेधः द फस्ट् पर्पस् आफ् एनी अपित् सार्वधातुक प्रत्यय इस् टु प्रिवेण्ट् द गुण ङिति च इत्यनेन गुणनिषेधः गुणे निषिद्धे किं भवति यदि धातुः ऋकारान्तः तर्हि ऋत इद्धातोः इत्यनेन इत्त्वं भवति यथा कृ इत्यस्ति चेत् किर् इति कृ धातुः दैवादिकः न सामान्यतः ऋकारान्तस्य धातोः इत्त्वं भवति ओतः श्यनि श्यनिपदे यदि ओकारान्तः धातुः तर्हि तस्य ओकारस्य लोपः भवति दो य इति स्थिते ओकारस्य लोपे ध्यति शो य श्य ओकारस्य लोपः श्यनिपदे भवति अनिदितां हल उपधायाः किङिति सो कितिङिति च परे यदि धातुः धातौ नकारः अस्ति तर्हि तस्य नकारस्य लोपः भवति यथा मन्थ् इति यदि धातुः तर्हि मथ् इति भवति कृन्त् इत्यस्ति चेत् कृत् एवं हलि च इत्यनेन उपधा दीर्घः रेफवान्तस्य धातोः उपधायाः दीर्घः अत एव दिव् य इति स्थिते अयं वकारान्तः धातुः तस्य उपधायाः दीर्घे दीव्यति इति भवति हलि च इत्यनेन रेफवान्तस्य धातोः उपधा दीर्घः इत्येतानि कार्याणि विकरणे परे भवन्ति दिवादिगणे ओके सो इफ् यु लुक् एट् द दिवादिगणस्य यदि पाठः स्वीक्रियते तर्हि एतानि सूत्राणि आश्रित्य किं भवति इति द्रष्टुं शक्यते. यथा छो इत्यस्ति ओतश्यनि इत्यनेन ओकारस्य लोपः भवति. एवम् अन्यानि हातिनि प्रायेण दिवादिगणे विकरणमाश्रित्य कार्यम् अधिकतया न भवति, कानिचन एव कार्याणि सामान्यतः भवन्ति. पुनः स्वादिगणे श्नु विकरणः नु इति शिष्यते. सोऽपि हलादि अपित् सार्वधातुकः, अपित्वात् इति च इत्यनेन गुणनिषेधः भवति. यदि धातौ नकारः अस्ति तर्हि अनिदिताम् हलौपधायाः किमिति इत्यनेन न लोपः. स्वादिगणे बहु सुलभम्, विकरणे परे कार्याणि अत्यन्तं न्यूनानि. सुदादिगणः, सुतुदादिगणे श प्रत्ययः, अजादिः अपित् सार्वधातुकः. पुनः अत्रापि गुणनिषेधः, यत्र यत्र अपित् सार्वधातुकः तत्र प्रथमम् इति च इत्येव स्मर्तव्यम्. ततः अयम् अजादि प्रत्ययः, अतः अजादौ सर्वत्र गुणे निषिद्धे इयङ् वङौ, अचिष्टधातुभ्रुवां युवोर् इयङ् वङौ इत्यनेन इकारान्तस्य इयङ् उकारान्तस्य उवङ्. रिङ् शयग् लिङ्क्षु ऋकारान्तस्य धातोः श यक् लिङ् शप्रत्यये परे रिङ् इति आदेशः भवति. पृ इत्यस्ति चेत् प्रि इति, अतः रिङ् आदेशः. ऋत इत्, ऋकारान्तस्य तु इत्. इगन्तानां धातूनाम् इकार उकारान्तानाम् इयङ् मङौ, ऋकारान्तस्य ऋङ्, ऋकारान्तस्य इत्त्वम् इति नियमः ष प्रत्यये. पुनः ये नकारवन्तः धातवः उपदेशे येषां नकारः अस्ति तेषाम् अनिदितां हलौपधायाः किङिति इत्यनेन न लोपः भवति. न लोपः यत्र यत्र किङिति च इति प्रवर्तते, अर्थात् प्रत्ययस्य अपित्वम् अस्ति, तत्र त्रीणि कार्याणि सामान्यतः भवन्ति. एकं तु ङिति च इत्यनेन गुणनिषेधः, अनिदितां हलौपधाया किङिति इत्यनेन न लोपः, ग्रहिद्या इत्यादिना सम्प्रसारणम्. सो न लोपः, सम्प्रसारणं, गुणनिषेधः इत्येतानि त्रीणि कार्याणि अपित् सार्वधातुकानां सामान्यानि. So as soon as you have that apitva or apitva resulting in nitva, so these three are the normal karyas which should spring to mind. Niticha immediately prevent the guna, and then yadi anidit dhatavaha tarhi nalopaha, yadi samprasaraninaha dhatavaha tarhi samprasaranam. Okay. Atrapi aniditam halopadhaya kimiti ityanena nalopaha bhavati, kintu atra vishishya ekam vartikam asti, she त्रिम्फादीनां नुम् वाच्यः. तुदादिगणे ये अनिदित् धातवः तेषां सर्वेषां पुनः नुमागमः भवति शप्रत्यये परे, अतः वि केन्सल् औट् ईच् अदर्स् एफेक्ट्. न लोपः भवति, पुनः नुमागमः, अतः धातोः रूपं तथैव भवति. तुदादिगणे नलोपस्य फलं द्रष्टुं न शक्यते पुनः नुमागमस्य कारणेन. रुधादिगणे रुधादिभ्यश्नम् इत्यनेन श्नम् विकरणः, अयं च मिदचोऽन्त्यात् परः इत्यनेन अन्त्यादचः परः भवति. सो यत्र धातोः परः न भवति अतः तन्निमित्तानि कार्याणि न भवन्ति. सो विकरणनिमित्तम् अङ्गकार्यं तत्र भवति यत्र धातोः परः विकरणः. सो दोस् कार्यास् विल् हेपन् ओन्ली वेन् द विकरण इस् फालोड् is follows the dhatu. Kintu yatra madhye vikaranah bhavati, tatra vikaranam api ange antar bhavati. So it just merges into the anga. So there is no these karyas like nyiticha or nalopa. Even though shnam is an apitta sarvadhatuka, etesham karyanam avakashah na bhavati. There is no chance for the normal कार्यस्. एकमेव कार्यमस्ति श्नात् न लोपः. श्न इत्यनेन श्नम् प्रत्ययः, तत्र श्नम् प्रत्ययात् परस्य नकारस्य लोपः. यथा कृन्त् इति धातुः अथवा इन्ध् इति धातुः, इन्ध् धातोः श्नमि कृते ಇ ನಂಧ್ ಇತಿ ಭವತಿ. ಇ ಇತಿ ಅಂತಿಮಃ ಅಚ್ ತಸ್ಮಾತ್ ಪರಃ ಶ್ನಂ. ಇ ನ ನಧ್ ಇತ್ಯಸ್ತಿ ಧಾತೋಃ ನಕಾರ ಧಕಾರೌ. ಇದಾನೀಂ ಶ್ನಮಃ ಪರಸ್ಯ ನಕಾರಸ್ಯ ಲೋಪಃ. ಅತಃ ಧಾತೋಃ ನಕಾರಸ್ಯ ಲೋಪೆ ಇ ನಧ್ ಇತಿ ಅಂಗಂ. ಸೊ ಯು ಹ್ಯಾವ್ ಇಂಧ್ ಇನಂಧ್ ತತಃ ಶ್ನಾನ್ನ ಲೋಪಃ ಇತ್ಯನೇನ ನಕಾರಸ್ಯ ಲೋಪೆ ಇನಧ್ ಇತಿ ಅಂಗಂ ಭವತಿ. ಏಕದೇಕಮೇವ ಕಾರ್ಯಂ ಸಾಮಾನ್ಯತಃ ಭವತಿ ಶ್ನಾನ್ನ ಲೋಪಃ ಇತಿ. ತನಾನಿಗಣೆ ಉ ವಿಕರಣಃ ಅಯಂ ಆರ್ಧಧಾತುಕಃ. ಆರ್ಧಧಾತುಕತ್ವಾತ್ ಸಾರ್ವಧಾತುಕಂ ಅಪಿತ್ ಇತ್ಯಸ್ಯ ಪ್ರವೃತ್ತಿಃ ನ ಭವತಿ. ಗುಣಂ ನಿಷೇಧುಂ ಕಿಮಪಿ ನಿಮಿತ್ತಂ ನಾಸ್ತಿ. ಸೊ ದೇರ್ ಇಸ್ ನೋ ನಿಮಿತ್ತ ಟು ಪ್ರಿವೆಂಟ್ ಗುಣ. ಅತಃ ಪುಗಂತಲಘೂಪಧಸ್ಯ ಚ ಇತಿ ಗುಣಃ ಪ್ರಾಪ್ನೋತಿ. ಗುಣಃ ಭವತಿ ಇತಿ ಕೇಷಾಂಚಿತ ಮತಂ, ನ ಭವತಿ ಇತಿ ಅನ್ಯೇಷಾಂ ಮತಂ. ಯತ್ರ ಶಪ್ ವಿಕರಣಃ ತತ್ರೈವ ಗುಣಃ ಭವತಿ. ಧಾತುಷು ಅನ್ಯತ್ರ ಗುಣಃ ನ ಭವತಿ ಇತಿ ಏಕಃ ಪಕ್ಷಃ. ಉಪ್ರತ್ಯಯೇ ಗುಣನಿಷೇಧಾರ್ಥಂ ನಿಮಿತ್ತಸ್ಯ ಅಭಾವಾತ್ ತಸ್ಮಿನ್ ಪರೇ ಅಪಿ ಗುಣಃ ಭವತಿ ಇತಿ ಅನ್ಯ. ಅತಃ ಉಭಯಥಾಪಿ ರೂಪಾಣಿ ದೃಶ್ಯಂತೆ. ಋಣು ಅರ್ಣು ತೃಣು ತರ್ಣು ಇತ್ಯೇವಂ ಉಭಯಥಾಪಿ ರೂಪಾಣಿ ದೃಶ್ಯಂತೆ ತನಾದಿಗಣೆ. ಕ್ರಿಯಾದಿಗಣೆ ಪುನಃ ಶ್ನಾ ವಿಕರಣಃ. ನಾ ಇತಿ ಶಿಷ್ಯತೆ. ಅಯಮಪಿ ಹಲಾದಿಃ ಅಪಿತ್ ಸಾರ್ವಧಾತುಕಃ. ಅಪಿತ್ವಾತ್ ನಿಧಿ ಚ ಇತಿ ಗುಣನಿಷೇಧಃ. ಅನಿದಿತಾಂ ಹಲೋಪಧಾಯಃ ಕಿಂಗಿತಿ ಇತಿ ನಲೋಪಃ ಉಭಯಂ ಭವತಿ. ಕ್ರಿಯಾದೌ ವಿಶಿಷ್ಯ ಏಕಂ ಸೂತ್ರಮಸ್ತಿ. ಹಲಃ ಶ್ನಃ ಶಾನಚ್ ಹೌ. ಹಿ ಪ್ರತ್ಯಯ ಪರೆ ಲೋಟ್ಲಕಾರಸ್ಯ ಮಧ್ಯಮ ಪುರುಷೇ ಏಕವಚನೆ ಪರೆ ಹಲಂತಾತ್ ಪರಸ್ಯ ಶ್ನಾ ಇತ್ಯಸ್ಯ ಸ್ಥಾನೆ ಶಾನಚ್ ಇತಿ ಆದೇಶಃ ಭವತಿ. ಯಥಾ ಬಂಧ್ ನಾ ಇತ್ಯಸ್ತಿ ಹಿ ಇತಿ ಭವತಿ. ತತ್ರ ಅನಿದಿತಾಂ ಹಲೋಪಧಾಯಃ ಕಿಂಗಿತಿ ಇತ್ಯನೇನ ನಲೋಪೆ ಬಧ್ ನಾ ಇತ್ಯಸ್ತಿ. ಇದಾನೀಂ ಹಲಃ ಪರಸ್ಯ ಶ್ನಾ ಪ್ರತ್ಯಯಸ್ಯ ಸ್ಥಾನೆ ಶಾನಚ್ ಶಾನಚ್ ಇತ್ಯತ್ರ ಆನ ಇತಿ ಶಿಷ್ಯತೆ. ಅತಃ ಬಧಾನ ಇತಿ ರೂಪಂ ಭವತಿ. ಬಧಾನ ಹಿ ಅಗ್ರೆ ಅಥೋ ಹೇ ಹೇ ಇತ್ಯನೇನ ಹೇ ಹೇ ಲುಕಿ ಬಧಾನ ಇತ್ಯೇವ ರೂಪಂ. ಅತಃ ಕ್ರಿಯಾದಿಗಣೆ ಯದಿ ಹಲಂತಃ ಧಾತುಃ ತರ್ಹಿ ಹಿ ಪ್ರತ್ಯಯೇ ಪರೆ ಏತತ್ ಸೂತ್ರಂ ಸ್ಮರ್ತವ್ಯಂ. ಹಲಶ್ನಃ ಶಾನಚ್ಛೌ ಶ್ನಾ ಇತಿ ವಿಕರಣಸ್ಯ ಸ್ಥಾನೆ ಆದೇಶಃ. ಸೊ ದಿಸ್ ಇಸ್ ಪ್ರಾಬಬ್ಲಿ ದ ಓನ್ಲಿ ಕೇಸ್ ವೇರ್ ದ ವಿಕರಣ ಇಟ್ ಸೆಲ್ಫ್ ಗೆಟ್ಸ್ ಎನ್ ಆದೇಶ. ಶ್ನಾ ಪ್ರತ್ಯಯಸ್ಯ ಸ್ಥಾನೆ ಶಾನಚ್ ಆದೇಶಃ ಭವತಿ. ಚುರಾದಿಗಣೆ ನಿಚ್ ಪ್ರತ್ಯಯ ಅಸ್ತಿ. ನಿಚ್ ತತಃ ಶಪ್. ನಿಚಿ ಪರೆ ಅಚೋಣಿತಿ ಇತ್ಯನೇನ ಅಥವಾ ಅತ ಉಪಧಾಯಃ ಇತ್ಯನೇನ ವೃದ್ಧಿಃ ಭವತಿ. ಓಕೆ. ಸೊ ಡಿಪೆಂಡಿಂಗ್ ಇಫ್ ಯದಿ ಅಜಂತಃ ಧಾತುಃ ತರ್ಹಿ ಅಚೋಣಿತಿ ಇತಿ ವೃದ್ಧಿಃ. ಯದಿ ಉಪಧಾಯಾಂ ಅಕಾರಃ ಅದುಪಧಃ ತರ್ಹಿ ಅತ ಉಪಧಾಯಃ ಇತ್ಯನೇನ ವೃದ್ಧಿಃ ಏಕಂ ಭವತಿ. ಅನ್ಯೇಷಾಂ ಧಾತೂನಾಂ ಪುಗಂತಲಘೂಪಧಸ್ಯ ಚ ಇತ್ಯನೇನ ಗುಣಃ. ಎಕ್ಸ್ಕ್ಯೂಸ್ ಮೀ ಜಸ್ಟ್ ಅ ಮೊಮೆಂಟ್ ಪ್ಲೀಸ್. ಸಾರಿ. ಅಜಂತಾನಾಂ ಅದುಪಧಾನಾಂ ಚ ಅಚೋಣಿತಿ ಅಥವಾ ಅತೌಪಧಾಯಾಃ ಇತಿ ವೃದ್ಧಿಃ. ಅನ್ಯೇಷಾಂ ಇಗುಪಧಾನಾಂ ಪುಗಂತಲಘೂಪಧಸ್ಯ ಚ ಇತ್ಯನೇನ ಗುಣಃ. ಕೇಚನ ಅದಂತಾಃ ಧಾತವಃ ಸಂತಿ ಚುರಾದಿಗಣೆ. तेषां अतोलोपः इत्यनेन अल्लोपः भवति आकारान्ताः ये धातवः तेषाम् अर्तिह्रीव्लीरि फ्लूयातां पुग्णौ आतां पुक् णौ निचि परे पुक् आगमः भवति अतः एतानि निचि परे कार्याणि सो निच् इस् नाट् रियलि विकरण किन्तु चुरादिगणे सर्वत्र धातुः निच् शप् प्रत्ययः इति भवति तत्र निचि परे एतानि कार्याणि भवन्ति शपि परे तु सामान्यं गुणः एव भवति सर्वत्र निजन्ताः सर्वेषामपि गुणः सर्वधातुकार्धधातुकयोः इति गुणे कृते ए इति भवति पुनः एचोयवायावः इत्यनेन अयादेशे अय् इति भवति अत एव चुरादिगणे सर्वत्र अय् चोरयति गणयति कथयति सर्वत्र णिचः गुणः अयादेशः सर्वेषामपि धातूनां भवति सो णिच् इस् कामन् णिचि परे तु एतानि कार्याणि सामान्यतः भवन्ति सो दिस् इस् नार्मल् फार् एनी गणम् तत्र तत्र विशिष्य कञ्चित् धातुम् उद्दिश्य कार्याणि उच्यन्ते तानि विशेषकार्याणि यथा मया उक्तं व्याकरणे सर्वदा उत्सर्गः अपवादः अथवा सामान्यः विशेषः तेनैव क्रमेण ज्ञातव्यं स्मर्तव्यम् ओके सो इट् इस् नाट् अड्वैसबल् एनी टैम् इन् व्याकरण टु गो फार् यु नो धातु बै धातु इट्स् आल्वेस् लैक् यु शुड् जनरलैज् एस् मच् एस् पासिबल् एण्ड् देन् ब्रान्च् औट् टु द स्पेसिफिक्स् सो सामान्यतः एतद् भवति कदाचित् केषाञ्चित् धातूनां विशिष्य विहितत्वात् कार्याणि भवन्ति यथा भ्वादिगणे पाघ्राध्मा इत्यनेन द्वादशानां धातूनाम् आदेशः सो डिरेक्ट् आदेश शिति परे अतः शप् प्रत्यये कृते शपि परे एते आदेशाः भवन्ति पाघ्राध्मास्थां न दाण् दृश् अर्ति ऋ सर्ति सदशदाम् एकादश धातूनां पिब जिघ्र धम तिष्ठ मन यच्छ पश्य ऋच्छ धौ शीय सीद इत्येते आदेशाः सो डिरेक्ट्लि रिप्लेस् द धातु वित् दिस् आदेश इषु गमियमां छः एतेषां त्रयाणां धातूनां छकारः आदेशः विधीयते अन्त्यस्य अतः गम इत्यत्र अन्ते छकारः गच्छ छकारे परे छेच इत्यनेन तुगागमः भवति तस्य श्रुत्वेन गच्छ यच्छ इति भवति सो दोस् विच् आर् हैलैटेड् बिलोङ्ग् टु दिस् गण ओके इन् सूत्रास् इन् केस् वेर् देर् इस् अ मिक्सिङ्ग् आफ् धातूस् आफ् डिफ्रेण्ट् गणस् पाघ्रथम इत्यत्र सर्वे धातवः भादिगणस्यैव इषुगमियमांसः इत्यत्र गम यम इति धातुद्वयं भादिगणस्य इषु धातुः तौदादिकः अतः यत्र विशिष्य वर्णेन अङ्कितं भवति तत्र ते धातवः अस्य गणस्य इति ज्ञातव्यम् ष्ठिवु क्लमुचमां शिति शिति परे एतेषां त्रयाणां धातूनां दीर्घः भवति ष्ठीवति आचामति इति क्लमुधातुः दैवादिकः क्रमः परस्मैपदेषु दीर्घः क्रमधातोः परस्मैपदपरे शिति दीर्घः अतः क्रामति क्राम्यति इति भवति ऊदुपधाया गोहः गुः धातुः तस्य ऊकारः गूहति इति दंशसञ्जस्वञ्जां शपि नलोपः नकारस्य लोपः विधीयते अतः दशति सजति स्वजते इति भवति रञ्जेश्च रञ्जधातोरपि नलोपः विधीयते अतः रजति रजते इति रधिजभो रचि अजादौ प्रत्यये परे रध् जभ् इत्येतयोः धातोः नुम् आगमः विधीयते अतः रन्धते जम्भते इति रूपम् कृपोरोलः कृपधातौ रेफस्य लत्वं विधीयते अतः कल्पते इति भवति गुणे कृते कर्प् तत्र रोलः इत्यनेन लत्वे कल्पते इत्येवं भादिगणे एतेषां धातूनां विशिष्य कश्चन आदेशः भवति सो अस् सून् अस् यु कम् अक्रास् अ धातु यु शुड् रिमेम्बर् देर् शुड् बि अ वे वेर् यु केन् रियलैज़् दट् दीस् धातूस् हव् सम्थिङ्ग् स्पेशल् फार् द रेस्ट् वाट् एवर् इस् द जनरल् यु विल् हाव् गुण इफ् देर् इस् नो गुण देर् इस् नो अदर् कार्य कुत्रापि प्रश्नाः सन्ति चेत् कृपया पृच्छन्तु You can ask at that point only. You don't have to wait for me to give a question break because I'm just going through it. So anytime, any questions, please stop me and ask.
Bhadiganasya ete visheshaha visheshamatiritya gunaha samanyam.
Okay. So with this, with just 1, 2, 3, 4, 5, 6, 7, 8, 9 sutras and guna, you will have the vikarana, you can join the vikarana to all the 1000 dhatus of the bhadigana. Okay. Etad vihaya anyat kimapi na bhavati vikaranasya yojane. Okay. So, adadigane samanyam visheshaha kimapi nasti. Vikaranasya eva abhavat vikarana nimittam karyam kimapi nasti. Juhotyadigane purvam samanyani abhyasakaryani uktani sarvesham dhatunam yani bhavanti. Atra keshanchana dhatunam vishishya abhyase karyam asti. Etha nijam trayanam gunaha shlau. Shlu pratyaye pare nijam trayanam ye nijadi iti trayaha dhatavaha tesham dhatunam gunaha bhavati. So you do vish, vi vish, gune krate ve vish, ve vij, ne nij iti. Tattu yetesham trayanam eva dhatunam bhavati. So since it is specifically mentioned for these dhatus, you will find it under the visheshakavya. Anything which is generally for a dhatu, without specifically mentioning this particular dhatu, I have clubbed it under the samanya kavyani. So that which specifically mentions a particular dhatu will come under the visheshakavya. Bhrinyam it bhriyadi trayaha dhatavaha santi bhriyadi heti tesham trayanam itvam bhavati abhyasasya ha jaha ityasti jiha ma mama mima bhr babhr bibhr ityevam trayanam itvam bhavati arti pipartyoshcha rdhatuhu prdhatuhu etayorapi itvam bhavati yar pipur pipurti iti rupam evam bahulam chandasi ye kechana chandasaha dhatavah santi tesham ete chandasaha iti kechana dhatavah tesham yatha upayogah tatha upayogam ashritya itvam bhavati. So etani vishishya karyani gyatavyani etad atiritya anyesham dhatunam samanyani yani abhyasa karyani tanyeva bhavanti. Ataha juhotyadigane vikarana nimittam karyam bhavati dvitvam abhyasa karyani cha. Divadigane samanyataha yani karyani tani drishtani guna nishedhaha tatha upadha dirghaha ityanini shamam ashtanam dirghaha shyani. Shamadihi iti ashta ekaha antarganaha asti tatra ashtanam dhatunam. Atrasti shamadi ganaha dirghaha bhavati shyani pare arthate vikarane pare dirghaha shamam ashtanam dirghashyani iti klam klamyati kshamyati tamyati damyati bhramyati madhyati shamyati shramyati iti ashtadhatunam shamam ashtanam dirghaha shyani ityanena dirghaha bhavati shyani pare sthivu klamu chamam shiti tat sthivu dhatuhu divadigane api asti punah klamu dhatuhu asti ataha etayoho dirghaha samprasaranam grahijya iti samprasaranam tatra vyadha dhatuhu daivadikaha tatra samprasarane vidhyati iti rupam radhijabho rachi radhyate randhyate iti bhavati numagamaha nidehe gunaha nimida iti yaha dhatuhu tasya vishishya gunaha vihitaha ataha medyati midya medya iti bhavati kidicha ityanena guna nishedham badhitva vishishya vihitatvat gunaha gya janor ja janadhatuhu daivadikaha tatra ja iti adeshaha bhavati shiti pare ataha jayate iti rupam bhavati. So etani visheshakaryani eta atiritya samanyam purvameva drishtam. So always you have to refer to the vishesha first. So if there is a visheshakarya, that will apply. If not, what is samanya? If not, I mean, once we do the samanya karya, what is the form? That is always the way to go. even though in learning it is always samanyam and then visheshaha, but in application always vishesha first and then samanya.
Kashchana prashna asti. Rao Mahone.
Can you hear me?
Yes. Tell me.
Soumya ji, can you hear me?
Ah, yes, I can hear you. Please, go ahead.
Hello, can you hear me?
I can hear you. Maybe you cannot hear me.
Can you hear me?
Yes. Are you not able to hear me?
Hello, can you hear me? Can you hear me?
Yes, I can. I can hear you fine. Maybe there is a...
Can you hear me? Yes, yes, we are hearing you very well. You maybe don't hear Swamiji?
Yes, yes, I can hear him. Hello? Are you able to hear me or not? That's my...
Hello, can you hear me? Hello, Soumyaji, can you hear me?
Hello. Rao Mohanai,
can you hear me?
Yes, I can hear you fine. I guess you are...
Okay.
Yes.
Yeah.
Okay.
See, my question is like this. When you do dvitva for juhotyadigana, suppose there is a dhatu with rukara, ru, the swara ru, it means ru, ru, and it becomes R, right? The first ru becomes, the abhyasa becomes R, right?
Yes.
Okay. On what basis does it become R? What is the sutra that makes it R?
Urat.
But Urat is, I did not see that sutra, Urat, for abhyasa.
It is. Abhyasa ruvaranasya atvam bhavati. It is an abhyasa karya.
7466.
Yeah, Urat is definitely an abhyasa karya. Sorry, 7466.
It's under abhyasa, sir.
Yes, yes, it is.
Okay.
Atalopa abhyasa, sir. So from here you start the abhyasa karya.
7466
is Urat. Urat is an abhyasa karya. Abhyasa ruvaranasya akara.
And then, if the dhatu, suppose with ru, I don't know if there is a dhatu with rukara, but in a, imagine there is one ru ru ar ru, the second ru, that is the that not the abhyasa, the second ru, that also becomes a r, right?
No, it does not. It is only for the abhyasa, and abhyasa samya is only for the first part. Not the second.
Okay. So the second one, the second row will never become a R at all?
No, no. It will not become R by Urat. If the following pratyaya is again, say, Iyarti, you have the dhatu where the R is there. So if you have a Nimitta ahead, if the pratyaya itself is Pit, then you can have Guna by Sarvadhatuka Arthasatukayo. So it depends on what is the pratyaya following. It will not get ar by urat. But if the following pratyaya is a pit pratyaya, then you can have guna for it based on the pratyaya. So it depends on what is the pratyaya which follows.
So the bottom line is, the first rukara which is abhyasa will definitely become ar because of urat in this 7466. But
yes,
the second one becomes ar based on nimitta.
Yeah, if there is nimitta, there can be a guna. That is a different sutra and a different karya altogether. It's not an abhyasa karya.
Oh, I see. So, urat is an abhyasa karya. It's not, but uran raparaha, that's also...
Uran raparaha is a general sutra. It applies everywhere where you are doing an adesha for rukara. So, anywhere across ashtadhyayi, if you do any adesha for rukara, if it is an, that is a, e, u, then it is always followed by repha. So, uranraparaha is a general paribhasha which applies everywhere, irrespective of where you are doing. Anywhere you have an adesha for rukara, it will be rapara. So, As soon as there is rukara, you should always have urandraparaha. So it does not differentiate what is the karya, whether it is guna sandhi or whether it is sandhi karya or anga karya or any karya, urandraparaha will apply.
So because of that urandraparaha, will the second ru become ar because of that?
Urandraparaha does not give you any adesha. It only says to the coming adesha which is coming, you add repha. Urandraparaha will not give any adesha. It just says
so
if the adesha happens to be a e u, then just add on a repha. So you will always need a sutra to give the adesha. Say urat says it gives akara. It says abhyasarakarasya avarnaha bhavati. Because of urandraparaha, it comes along with the repha. So you do ar and you don't do only akara. So again, if you have the nimitta for the second repha, say sarvadhatukardhatukayoho, that will again mandate guna. Guna is akara. Now this akara, because of urandraparaha, it comes along with the repha, so it becomes ar. So urandraparaha does not cause any karya by itself. It only adds repha to the incoming adesha. So what we have to see is there a sutra which gives that incoming adesha?
So urandraparaha, is it a vidhi sutra then?
It is, we call it paribhasha, we call it vidhi, but whatever it is, it will not do anything on its own. It cannot act on its own. It only adds or modifies the adesha.
So there have to be a catalyst for that to act.
Yes, yes. Urandraparaha is not an independent sutra. It's just like a, you know, it defines the convention. It's a paribhasha. That's it.
Okay. Thank you very much. I got it now.
Yeah. Okay. So, divadiganasya karyam drashtam. Swadiganaha, atra vishishtam karyam kimapi nasti. Okay. So, all dhatus follow only the general ones. So, either guna nishedha or nalopa. Niti chaityanena guna nishedha bhavati, anidita mityanena nalopaha. Vishishya kasyapi dhatoho karyam kimapi nasti swadigane. Tudadigane, teyeva dhatvaha. Sad shad iti dhatu dvayam tudadigane api asti. Tesham adeshaha bhavati pagradhmaiti ichchati ishadhatuhu taudadikaha tasya chakaraha antadeshaha bhavati she muchadinam tudadigane muchadihi iti kaschit antarganaha asti. You can see these. So, etesham dhatunam numagamaha bhavati shapratyaye pare. Yataha munchati, lumpati, vindati, limpati, sinchati, khindati, krantati, pimshati. Iti sarvesham dhatunam numagamaha bhavati shapratyaye pare. Etesham eva dhatunam bhavati, ataha etat vishishtam karyam. Divadigane shamamashtanam dirghashyani iti smartavyam. Tudadigane shemuchadinam iti smartavyam. Tataha samprasaranam. Yatha maya uktam yatra yatra apit sarvadhatukaha bhavati nidvadbhavaha tatra samprasaranam grahijya iti sutram avashyam smartavyam. Tatra chatvaraha dhatavaha taudadikaha vichati vrishchati prichati vyach dhatuhu samprasarane krite vich vrashch dhatuhu samprasarane krite vrishch prach dhatuhu samprasarane krite prich bhrasj dhatuhu samprasarane krite bhrasj bhrij iti bhavati. Rudhadigane vishishtam kimapi nasti shnam shnami shnan nalopaha iti ekameva karyam. Tanadigane upratyayaha kimapi karyam vishishtam nasti. Kriyadigane punaha samprasaranam asti grahijya iti sutra iti dhatu dvayam. Grah na iti stite samprasarane grinhati. Jya na samprasarane krite jina jinati iti dhatu dvayam samprasaranam praptnoti kriyadigane. Gya janor ja tatra gya dhatuhu kriyadigane asti ataha tasya ja iti adeshaha bhavati ataha gya na जानाति इति रूपं भवति. त्वादीनां ह्रस्वः, त्वादि इति कश्चित् अन्तर्गणः अस्ति क्रियादिगणे. त्वादिः तेषां, त्वादीनां ह्रस्वः इत्यनेन ह्रस्वः भवति. अतः एतेषां सर्वेषां प्लि न प्लिना व्लिना लिनाति रिनाति गृणाति तृणाति इत्यादि सर्वेषां ह्रस्वः. सो यदि त्वादित्वम् अस्ति तर्हि ह्रस्वः कर्तव्यः. सो एतानि विशिष्य कार्याणि. चुरादिगणे मितां ह्रस्वः इति सूत्रमस्ति. यः मित् धातुः, एक एव धातुः अस्ति, चल इति किमपि, तस्य ह्रस्वः भवति. उपधायाश्च इत्यनेन इत्त्वं भवति. सो कृत् इत्यत्र किर्त् कीर्तयति इति, किर्त् इत्वे कृते उपधायाञ्च इत्यनेन दीर्घे कीर्तयति इति रूपं. केवलं तस्य एकस्य धातोरेव भवति. कृपोरोलः, कृपधातुः अत्रापि अस्ति, तस्य लत्वम् इत्येतानि विशेषकार्याणि. एतेषु कार्येषु कृतेषु, वन्स् वी हेव् डन् दिस् कार्य, वी हेव् द अङ्ग रेडि. यु हेव् द धातु प्लस् विकरण. धातोः विकरणस्य योजनेन यदङ्गं, तदङ्गं सिद्धम्. ओके, सो वित् दीस् सूत्र, सो देर् आर् सम् स्पेसिफिक् कार्यास् फार् धातुस्, अदर् देन् दट् द जनरल् कार्य फार् दट् पर्टिक्युलर् विकरण. So once we do that, we have the first part ready. We have the dhatu and we have joined it with the vikarana to get your final anga. Asmin ange siddhe agre pratyayasya nirmanam. Yathamaya uktam sarveshu lakareshu tiptasji ityete eva pratyayaha bhavanti. Kintu tesham dvedha karyani bhavanti. Ekam lakaram ashritya karyam bhavati. Aparam angamashritya karyam. So the pratyaya will be modified both based on the lakara and based on the anga. Okay. Kvachit lakaramashritya parivartanam bhavati, kvachit angamashritya. Okay. Ataha ubhayathapi kritva tasya lakarasya ye pratyayaha te nyatavyaha. Tatra pratyaya nirmanam adhitam. So we will just go through it quickly. Lak lakare tip. पकारस्य लोपे ति, ऋत्वविसर्गौ तः, अन्ति झोन्तः इत्यनेन झस्य अन्तादेशः अन्ति, सि थः थ नि वः मः. विशिष्य किमपि नास्ति. ऋत्वविसर्गौ अनुबन्धलोपः, झोन्तः इत्येव. अग्रे आत्मनेपदे टित आत्मनेपदानां टेरे थासस्से इति सूत्रद्वयम् अस्ति. अतः तेन सर्वत्र एकारः अन्तादेशः भवति. मध्ये आतोङितः, यदि अदन्तमङ्गं तर्हि प्रत्यय ङित्सम्बन्धिनः आकारस्य इकारादेशः भवति. दिस् इस् ए ङित् प्रत्यय बिकास् आफ् सार्वधातुकम् अपित्, अपित् सार्वधातुकं ङिद्वद् भवति. तस्य इक इय् इत्यादेशः, इय् ताम् लोपोव्योर्वली इत्यनेन एकारस्य लोपे इताम् इताम् इथाम् इति भवति. So there is no other karya which is special. So you have te ite ante, se ite dve, e vahe mahe. Langlakaraha, langlakare sutra trayam sarvadas martavyam, tas thas thamipam tam tam tamaha, tas thas tha mip chaturnam tam tam ta am ityete adeshaha directly. Nityam nitaha. Nit sambandhi lakarasya sakarasya lopaha. So the sakara gets deleted. So you have va, ma, itascha, ikarasya api lopaha, ataha t, s, ant. Okay, so with these three sutras, we can get the pratyayas of langlakara. Tasthasthamipam tam tam tamaha, nityam nitaha, and itascha. Atmane padetu. किमपि नास्ति. देर् इस् ओन्ली आतोङितः. सो आकार रिप्लेस्ड् बै इकार. आताम् इताम् इति. सो अन्यत् किमपि कार्यं नास्ति. सो द प्रत्ययास् आफ् आत्मनेपद रिमेन् अस् दे आर् त इताम् अन्त स्थाह इथाम ध्वम इ वहि महि. लोट्लकारे कानिचन सूत्राणि. सो टू नो दिस प्रत्यय निर्माण यू शुड ऑलवेज look at this particular section of the Ashtadhyayi which says lasya. Lasya ityadhikaraha. So if you look at this, most of the pratyaya nirmana will be over here. Sarvesham pratyayanam nirmanasya mukhyani sutrani atraiva bhavanti lasya. So you have tiptasthi siptastha lakarasya sthane adeshaha tita atmane padanam tere thasasse. Next litaha litastajayo rechire. So it starts with litlakara. Litlakare yani karyani vido latova latlakare ete adeshaha bhavanti loto langvat. So from loto langvat till eta ai. So if you know this, then you will know the pratyayas for lotlakara. Lotlakare pratyaya nirmanartham etani sarvani sutrani apekshitani bhavanti. So then again you have sauttamasya nityam nitaha itascha tasthasthamipam tamtam tamaha. So this is for all nit lakaras. So lingasiyut. So then you have the karya which will happen for ling lakara, which is Yasut, etc. Jasyaran, Ito, At, Jherjus, etc. Okay. So, for Pratyaya Nirmana, this is the section 3477 till 34117. So, if you are conversant with these 30 sutras, then you will be able to do Pratyaya Nirmana easily. So, Lotlakare. So, you have Eruhu. You take the Pratyayas of Latlakara. Yatra yatra ikaraha asti tatra ukaraha. So you have eruhu. Ti becomes tu. Anti becomes antu. Loto langvati ityati deshaha. Langlakare yatha tatha karyam bhavati. Ataha tasthasthamipam tam tam tamaha. And then nityam nitaha ityanena sakara lopaha adeshaha bhavanti. Si serhya picha. Si ityasya sthane lotlakare hi ityadeshah bhavati. Yadi angam akarantam tarhi hehe luk bhavati. So if the anga is hraswa adanta, adanta rangat parasya hehe luk syat. So the hi is deleted. Tukhyos tatang ashishyanya tarasyam ityanena tu hi ityetayoh sthane tat ityadeshah bhavati ashirarthe. Yatra ashishiling lotau ityanena ashirathe lotlakarasya prayogaha tatra tat ityapi ekam rupam. Ataha bhavatu bhavatat bhava bhavatat iti tipsipohasthane tat adeshaha bhavati. So these are the pratyayas of lotlakara parasmaipada. Tu tat tam antu tat tamta ani ava ama. Uttama Purushe Ad Uttamasya Picha Ityanena Aat Agamaha Bhavati Sacha Pit. Lotlakare Atmane Pade Aam Etaha. Yatra Latlakare Ekaraha Bhavati Tatra Aam. Aam Etaha. Ataha Te becomes Tam. Ite becomes Itam. Ante becomes Antam. Savabhyam Vamau. Sakara Vakara Abhyam Parasya Ekarasya Va अम् इति आदेशः. अतः से इत्यस्य स्थाने स्व, द्वे इत्यस्य स्थाने ध्वम्. एत ऐ एकारस्य ऐकारः भवति उत्तमपुरुषे. आडागमः पुनः ऐकारादेशः. अतः ऐ आवहै आमहै. ताम इताम अन्ताम स्व इथाम ध्वम् ऐ आवहै आमहै इति लोट्लकारस्य प्रत्ययः. Vithiling lakare sarvesham dhatunam yasut agamaha bhavati. Okay, so that step I think is missed here. So you have yasut everywhere. Ya and the pratyaya. Yasu. Sut ithoho. इत्यनेन तकार थकारयोः सुडागमः अपि भवति. उभयोः या सुटः सुटश्च यः सकारः तस्य सकारस्य लिङ्गस्थलोपो अनन्त्यस्य इत्यनेन लोपः भवति. सो यु हाव् या प्लस् प्रत्यय. यदि अङ्गम् अदन्तं तर्हि अतो येयः इत्यनेन यासुटः स्थाने इय् आदेशः भवति. सो यु हाव् इय् ति इय् तस् इय् झि एट्सेट्रा. अग्रे कार्याणि अत्र दर्शितानि. लोपो व्योर्वलि इत्यनेन लोपः. सो यु हाव् इत् इताम् इहि इतम् इत इव 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 सर्वत्र लोपो व्योर्वलि इत्यनेन भवति. तस्थस्तमिपां तां तं तामः नित्यम् इतः इत्येतत् कार्यद्वयं भवत्येव. इतश्च इत्यपि भवति. झेर् जुस् लिङ्लकारे झेः स्थाने जुस् इति आदेशः. सो यु हाव् इत् इताम् इयुः इहि इतम् इत इयम् इव इम इति विधिलिङ्लकारे प्रत्ययाः भवन्ति. सो द मेन् थिङ्ग् टु रिमेम्बर् हियर् इस् द यासुट् अण्ड् सुट् अण्ड् कार्यास् रिलेटेड् टु देम्. आत्मनेपदे सीयुट् आगमः. परस्मैपदे यासुट्. यासुट् परस्मैपदेषु उदात्तोङिच्च एण्ड् देन् लिङ्गः सीयुट्. सो अगेन् इफ् यु लुक् एट् हियर् यु हाव् द लिङ्ग सीयुट्. यासुट् परस्मैपदेषु उदात्तोङिच्च किदाशिषि झस्य रन् इटो अत् सुट् पिथोः झेर्जुस् सर्वाणि सूत्राणि अत्रैव सन्ति. सो इट् इस् जस्ट् दिस् अधिकार विच् यु विल् हाव् टु अण्डर्स्टाण्ड् फार् प्रत्ययनिर्माण. ओके, अत्र सीयुट् इति आगमः भवति. सीयुट् आगमे सकारस्य लिङ्गस्थलोपोनन्त्यस्य इत्यनेन लोपः. सो यु हाव् ईय् इत्यस्ति सर्वत्र. लोपो व्योर्वलि इति भवति. झस्य रन् झेः जुस् झस्य रन् इटो अत् त्रीणि सूत्राणि विधिलिङ्लकारे. सो झ गेट् रन्. सो यु हाव् इ रन्. इ प्रत्यय गेट्स् अ. सो इट् बिकम्स् इय. ईत ईयाताम् ईरन्. ईथाः ईयाथाम् ईध्वम्. इय ईवहि ईमहि इत्येते प्रत्ययाः. सो डूयिङ्ग् आल् दिस् अदन्त अङ्गेभ्यः एते प्रत्ययाः. Assuming that the anga is hrasva akaranta, which is the case in bhvadi, divadi, tudadi and churadi. Eteshu chaturshu ganeshu ete pratyayaha bhavanti. Adanta angebhyaha ete pratyayaha. Now, anadanta angebhyaha. Yadi angam adantam nasti, tarhi kim bhavati? आतोङितः इत्यस्य प्रवृत्तिः न भवति. ओके, सो इन् आल् दीस् त्री केसेस् यु सी दट् आतोङितः विल् नाट् अप्लै. सो आते आथे इत्यत्र आकारस्यैव श्रवणं भवति. यदि अङ्गम् अदन्तं तर्हि इते इथे इताम् इथाम् आतोङितः इत्यनेन इयादेशः. यदि अङ्गम् अनदन्तं तर्हि इयादेशः न भवति इति एकम्. द्वितीयम् आत्मनेपदेष्वनतः इत्यनेन अनदन्तादङ्गात् परस्य आत्मनेपदसम्बन्धि झस्य अदादेशः भवति. इन्स्टेड् आफ् झोन्तः यु हाव् आत्मनेपदेष्वनतः इति द्वितीयम्. अतो हेः इत्यनेन हेः लुक् न भवति. यदि अङ्गम् अदन्तं तर्हि हेः लुक् भवति. यदि अङ्गम् अनदन्तं तर्हि हेः लुक् न भवति. चतुर्थम् अतो येयः यासुटः स्थाने यः इयादेशः सः न भवति. सो दीस् फोर् आर् द ओन्ली डिफरेन्सेस् बिट्वीन् द प्रत्ययस् फार् अदन्त अङ्गस् एण्ड् अनदन्त अङ्गस्. यदि अङ्गं न अदन्तं तर्हि अतो येयः इति न भवति. आतोङितः इति न भवति. अतो हेः इति न भवति. एतेषां त्रयाणां सूत्राणां प्रवृत्तिः न भवति. आत्मनेपदेष्वनतः इति सूत्रस्य प्रवृत्तिः भवति. ओके, सो द प्रत्ययस् बिट्वीन् अदन्ताङ्ग एण्ड् अनदन्ताङ्ग डिफर् ओन्ली इन् दीस्. इन् आल् अदर् केसेस् द प्रत्ययस् आर् द सेम्. तृतीयमिदम् अङ्गमस्ति अभ्यस्तम्. उभे अभ्यस्तम् इत्यनेन द्वित्वे कृते अभ्यस्तसंज्ञा भवति अर्हात् जुहोत्यादिगणस्य सर्वेषामपि धातूनाम् अभ्यस्तसंज्ञा भवति पुनः जक्षित्यादयः षट् इति सूत्रेण अदादिगणे जक्ष इत्यारभ्य सप्तधातूनाम् अभ्यस्तसंज्ञा ओके सो ऑल धातूज ऑफ द जुहोत्यादिगण आफ्टर वीडु द्वित्व and seven dhatus of the adadigana etesham abhyastam iti samya asti yadi abhyasta samya asti tarhi adabhyastat ityanena parasmai pade api adadeshah bhavati so atmane pade to adadeshah atmane padeshvanatah ityanena astyeva parasmai pade api adabhyastat iti sutrena at ityadeshah bhavati sijabhyasta vidibhyascha अभ्यस्तात् परस्य लङ्लकारस्य झेः जुस् आदेशः सो इफ इट इज अभ्यस्त द झी इन लङ्लकार गेट्स जुस् ओके एते त्रयः एव प्रत्ययाः भिद्यन्ते अनदन्ताङ्गेभ्यः यू शुड रिमेम्बर दैट द अभ्यस्त प्रत्यय स्टार्ट नॉट विद द अदन्ताङ्ग बट द अनदन्ताङ्ग अनदन्ताङ्गस्य ये प्रत्ययाः तेभ्यः त्रयः प्रत्ययाः भिद्यन्ते These three differ. All the other pratyayas are the same as the pratyayas for anadanta anga. Anadanta anga naam ye pratyayaha, te eva pratyayaha bhavanti. Okay. So these are the final pratyayas for abhyastas and anadantas. Pratyaya nirmane krite agre प्रत्ययस्य प्रत्ययनिमित्तं अंगकाव्यम् एतं प्रत्ययम् आश्रित्य यत् कार्यं तत् कार्यं ज्ञातव्यम् ततः पूर्वं प्रत्ययानां विभागः ये प्रत्ययाः सन्ति तेषां विभागः ज्ञातव्यः विशिष्य अनदन्तगणेषु दिस् विभाग डस् नाट् मैटर मच फॉर अदन्तगण डस् नाट् मैटर एट ऑल बिकॉज एवरीवेयर द अंग इज अदन्त अनदन्त अनदन्तं यत्र अङ्गं तत्र प्रत्ययस्य विभागः निश्चयेन स्मर्तव्यः प्रत्ययाः चतुर्धा भवन्ति आदौ पित् अपित् इति विभागः तिप् तस् झि इति त्रयः प्रत्ययाः पितः सो तिप् तस् झि तिप् तस् झि दीस् आर् आल्वेस् पित् आल् ग्रीन् वन्स् बोत् डार्क् ग्रीन् एण्ड् लैट् ग्रीन् आर् पित् So, tip tas ji is always pit. So, here also you have tip, but you have, sorry, not tip tas ji, tip sip mip. Shamyatam. Tip sip mip iti trayaha pratyayaha sarvada pitaha. Lotlakare tip pit. Sip, sipaha sthane sehe hi apit cha. Vishishya apit iti uktatvat hi pratyayaha pit na bhavati. आडुत्तमस्य पिच्च उत्तमपुरुषे सर्वेषां प्रत्ययानां आडागमः कृतः स च पित् सो दिस् कालम् एण्ड् दिस् रो दीस् आर् आल् पित् प्रत्ययस् तत्रापि पित् प्रत्यये पुनः हलादिः अजादिः इति भेदः पि सि मि तिस् इति पञ्च हलादि पित् प्रत्ययाः आनि आव आम ऐ आवहै आमहै अम् इति सप्त अजादि पित् प्रत्ययाः सो यू हैव फर्स्ट यू हैव पित् एंड अपित् ततः हलादि पित् अजादि पित् अन्ये सर्वेपि अपित् प्रत्ययाः तत्रापि पुनः अजादि ये नीलवर्णेन अंकिताः ते अजादि अपित् अन्ये सर्वे हलादि अपित् सो दीस फोर कैटेगरीज वेरी वेरी इंपॉर्टेंट पित् अपित् तत्र उभयत्र हलादि पित् अजादि पित् हलादि अपित् अजादि अपित् ओके एते एषः प्रत्यय विभागः निश्चयेन स्मर्तव्यः सो इफ यू हैव दैट यू कैन इमीडिएटली लुक एट द कार्य इदानीम् एतद् विज्ञाय अग्रे प्रत्ययनिमित्तम् अङ्गकार्यम् प्रत्ययम् आश्रित्य किं कार्यं भवति सो दिस् इस् द फैनल् स्टेज् वेर् यु आर् जायिनिङ्ग् युर् अङ्ग टु द प्रत्यय तत्र Antam ashritya karyani smartavyani. Always it depends on the anta. What is the final letter of the anga? Yadi angam adantam. So all four ganas. Vadi, divadi, tudadi, churadi. Tarhi ekameva angakaryam. There is a single angakarya which is ato dirgho yahi. There is no other angakarya which will happen. Ato dirgho yahi. Yayadau pratyaye pare adantasya angasya dirghaha. Ateva patha mi pathami pathavaha pathamaha mi vas mas. So yayadau pratyaye pare adantasya angasya dirghaha. Ityanena dirghaha bhavati. Anyat kimapi na bhavati. So there is absolutely no other karya for adantas. No other angakarya. Okay. Sandhikaryam bhavati, angakaryam anyat kimapi na bhavati. Yadi akarantam angam. Tatra trayaha sutraha smartavyaha. Shna abhyastayoho ataha ityanena akarasya lopaha bhavati. Shna pratyayantasya tatha abhyastasya angasya yadi akarahasti tarhi akarasya lopaha bhavati ajadau apiti. Okay, when followed by the ajadi apit, e halyaghoho, ityanena haladau pratyaye itvam, ajadau pratyaye lopaha. Okay, kreenati, kreenitaha, kreenanti, kreenataha. So since it is haladi, you have itva, it becomes kreenitaha. Kreena anti, ajadau pratyaye pare akarasya lopaha, kreena anti, kreenanti. Krinitaha krinanti. Iti. Evam abhyastasya. Yadi mima te ityasti. Tatra te iti haladi pratyaha. Ataha itvam bhavati mimite. Mimite mimate. Mima ate. Tatra shnabhyastayor ataha abhyastatvat akarasya lope mim ate mimate. Ataha itvam athava lopaha. Etatu apitsu pratyayeshu eva. Pitsu pratyayeshu kimapikaryam nabhavati. Apitsu pratyayeshu akarasya lopaha athava itvam. Ghvaso redha abhyasa lopascha. Yadi ghusamya asti yatha dadhatuhu tarhi hi pratyaye pare hau. Kevalam hi pratyaye pare yetvam bhavati ghvasoho yet hau abhyasa lopascha. Atayeva dada hi tatra abhyasasya lopaha yetvam dehi dhehi iti rupadvayam bhavati. Okay. So akarantanam anganam etani karyani. Igantanam anganam ik I u rul tatra pitsu pratyayeshu gunaha bhavati. Sarvadhatuka ardhadhatuka yoho pugantalaghupadhasya cha ityanena gunaha jusi cha jusi pare api gunaha bhavati. Nabhyastasya achipiti sarvadhatuke. Yadi abhyasta samya asti tarhi laghupada gunaha na bhavati. Na so guna nishedhaha. Yadi abhyasta samya, that is juhotyadi ganasya yadi dhatuhu tarhi piti sarvadhatuke gunaha na bhavati. Uto vriddhir luki hali. Luki arthat adadi gane yadi ukarantaha dhatuhu tarhi vriddhihi bhavati. So these are the common karyas. Samanyataha pitsu pratyayeshu gunaha bhavati iti samanyam. Yadi abhyasta samya tarhi gunaha na bhavati. Yadi luk arthat adadi ganaha tarhi gunam badhitva vriddhihi bhavati. Okay. Sarvesham igantanam etat samanyam karyam. Apitsu pratyayeshu kim bhavati? As soon as you prevent guna. Apitsu pratyayeshu niticha ityanena guna nishedhaha. Gune nishidhe achishnu dhatu bhruvam yor yang vangau. Ajadau pratyaye yang uvang. Ikarantasya yang ukarantasya uvang. Abhyasasya asavarne. Abhyasasya api iyang adeshaha bhavati. Eranekacho asanyoga purvasya. Yadi anekach angamasti tarhi yanna. Yadi ekat tarhi yang, yadi anekat yan. Bibheti bibhitaha bibhyati. Bibhi ati. Bibhi iti anekat angam. Ataha yan bhavati. Okay? So as soon as there is no guna, for ikarantas and ukarantas, the normal karya is guna. Yadi gunaha na bhavati, tarhi either yang or yan. Okay? Prayena yang eva adhikam. Yadi anekachasti tarhi yan bhavati. Ikarantasya ukarantasya cha yang vangau. Ikarantasya yadi anekachangam tarhi yan. Rukaraha ruta iddhatoho ityanena rukarasya itvam bhavati. Ir iti adeshaha ut oshtya purvasya. Yadi rukarat purvam oshtya varnaha asti tarhi ur. Instead of ir you have ur. Pr dhatoho. So it becomes pipurti. Okay. So generally it becomes ir. Say krut becomes kirt, not krut. Kr becomes kir, kirati, etc. But if it is pr, it becomes pur instead of pir. So apitsu pratyayeshu yang vangau yan ruta iddhatohu. So pit always means guna, apit always means yang or yan. Or itva for rutaid dhato. Okay. So sarvesham api iganta anganam etanyeva samanya karyani bhavanti. There is one special category you should remember. Pratyaya ukaranta. Shnu, swadibhya shnuho ityanena shnu iti pratyayaha. Evam tanadikribhya uhu iti u. Yatra pratyayasya ukaraha. Tatra trini karyani vishishya bhavanti. Utashcha pratyayad asanyoga purvat. Yatra pratyayasya ukarahasti tasmat parasya hehe luk bhavati. Atayeva sunu, chinu, kuru ityadishu hehe shravanam na bhavati. Lopashcha asya anyatarasyam mvoh. Ukarantaha yadi pratyayaha tarhi makara vakarayoho parayoho va lopaha. Optionally there is the deletion. So you have sunuvaha, sunvaha, sunumaha, sunmaha, evam, shrinuvaha, shrinvaha, shrinumaha, shrinmaha. Hehe luk nityam bhavati, vasmasoho parayoho, vakara makarayoho parayoho, vikalpena lopaha bhavati ukarasya. Kushnuvaho sarvadhatuke, hudhatoho shnu, since shnu is the pratyaya, sarvadhatuke pare, yan bhavati. So these three karyas should always remember when we are talking about the fifth and the eighth gana. Swadigane, tanadigane, yatra pratyayaha ukarantaha, tatra etani trini karyani smartavyani. You will not have the normal yang, uvang, etc. So, I mean, those will happen. Along with those, you should also remember these. Yatra angam halantam. So these are all for the ajantas. Igantana, mukarantana, ityadi. Yadi angam halantam, tarhi kim bhavati, pratyaye pare. Halgyabhyo dirghat sutisya praktam hali. Langlakare tipsipoho lopaha bhavati, yadi angam halantam. Hujalbhyo herdhihi, jhalantat parasya hehe, dhi iti adeshaha bhavati. Shnasor allopaha. Shna pratyayantasya tatha, shnam pratyayantasya, this is not shna, shna asohu. So if it is shnam, shnam means the anga is always halanta, tatra akarasya lopaha bhavati apitsu pratyayeshu. Atayeva runadhi rundhaha rundhanti, runadhu taha. Tatra shnasora lopaha ityanena lope rundhaha rundhanti. Rundhaha rundha. Sarvesham dhatunam. Rudhadigane sarvesham api dhatunam. Sarvepi jhalantaha. Ataha sarvatra shnasora allopaha. Ityanena allopaha bhavati. Apitsu pratyayeshu pareshu. Okay. So these are all the general karyas. Whichever gana you go. So if it is adantam, tarhi kevalam ekameva karyam. Yadi anadantam, tarhi etani samanya karyani smartavyani. अत्र एकः प्रश्नः अस्ति इज द पित् एंड अपित् डिस्क्रिमिनेशन सेम फॉर अदंत अनदंत एंड अभ्यस्त प्रत्यय यदि अंगम अदंतम तर्हि पित् अपित् इत्यस्य विभागस्य आवश्यकता नास्ति द विभागस्तु समानः द डिविजन इज द सेम बट इट डज नॉट अप्लाई मीन देयर इज नो प्रैक्टिकल पर्पस फॉर द विभाग फॉर अनदंत एंड अभ्यस्त वी नीड दट एंड इट इज द सेम प्रत्यय विभागः समानः सर्वत्रापि समान एव किन्तु यदि अंगम अदंतम तर्हि तस्य उपयोगः न भवति यदि अंगम अनदंतम तर्हि विभागस्य उपयोगः भवति अन्य केपि प्रश्नाः सन्ति वा सो एतानि प्रत्यय प्रत्यय निमित्तम अंगकार्यम इत्यत्र उत्सर्गिकम सो दीज आर द नॉर्मल कार्यस विच यू शुड ऑलवेज रिमेंबर व्हाट अबाउट द स्पेशल वन्स विशिष्य यत्र यत्र धातुम् आश्रित्य कार्यम उच्यते तत्सर्वमपि विशेषः तत्तु धातोः अध्ययन समये एव स्मर्तव्यम् सो अलोंग विथ ईच धातु इफ देयर इज समथिंग स्पेशल यू शुड रिमेंबर सो इफ यू लुक एट दिस धातु पाठ यस अभ्यासस्य असवर्णे यदि अभ्यासे अभ्यासस्य इयङादेशः भवति सो यू हैव दैट इयर्ति दैट इज वेयर वी सी इट सो यू हैव द ऋ धातु सो ऋ इति द्वित्वं द्वित्वे कृते तस्य उरत् इत्यनेन अकारः सो यू हैव अर् एंड दिस सो तत्र असवर्णे स्वरे परे अभ्यासस्य इयङ् आदेशः भवति सो यू हैव इय ऋ सो इयङ् आदेश फॉर द अभ्यास सो इट डज नॉट अप्लाई फॉर मच इन सार्वधातुक प्रकरण अर्धधातुक प्रकरणे लिट्लकारे बहुत्रस्य उपयोगः भवति अत्र तु केवलं तस्मिन् धातौ भवति सो
ओके दैट्स व्हेन वी आर गोइंग टू सी इट एक्चुअली
या ओके सो विशेषः सो फॉर विशेष इट डिपेंड्स ऑन दैट पर्टिकुलर धातु ओके सो फॉर एग्जांपल इफ यू गो टू द क्रियादिगण विशेष कोऽपि नास्ति ग्रहिज्या इत्यादिना कुत्रापि संप्रसारणं भवति It is not for plea. I think I did something wrong. Okay, I'll change this. Okay. So if you look at, say, Adadigana, Adadigane Vishishya Sutrani Adhikani Santi. Okay. So if you look at Shas, I think the whole... This thing is lost because I reordered the dhatus. I will set this right. Okay. So I think everywhere there is a problem because of the reordering. Anyway. So tatra tatra visheshyatha kru dhatu hasti tarhi nityam karotehe yecha ataut sarva dhatuke iti sutra trayam visheshya kru dhatuhu. It is specific to kru dhatu. ओके कृ धातोः नित्यम् उकारलोपः भवति पुनः यकारे परे उत्वं भवति अत उत् सार्वधातुके परे उत्वम् अत एव कुरुतः कुर्वन्ति अपित्सु सार्वधातुकेषु उत्वं भवति एतत्त्रयं सूत्रत्रयं कृ धातोरेव सो देर् आर् सूत्रास् विच् आर् स्पेसिफिक् टु अ धातु धातुं विशिष्य निर्दिश्य यानि सूत्राणि उच्यन्ते तानि तेषु सूत्रेषु परेषु एव क्षम्यताम् तस्य धातोः विषये एव ज्ञातव्यम् ओके सो विल् एड् दोस् सूत्रास् इन् दिस् धातु ऐ आल्रेडी एडेड् बट् ऐ थिङ्क् ऐ मेड् अ मिस् बै रीआर्डरिङ्ग् इट् सो तृह् धातुः अस्ति सो तृह् धातुः अस्ति चेत् तृणः इम् आगमः भवति सो देर् आर् स्पेसिफिक् सूत्रास् विच् आर् टु बि रिमेम्बर्ड् ओन्ली इन् द काण्टेक्स्ट् आफ् दट् धातु ओके सो दोस् सूत्रास् यु विल् नो बै looking at the dhatu
this one. So you cannot make a generalization for the vishesha karyas. Yato hi tatta dhatoho yaha visheshaha saha smartavyaha. So if there is nothing special for that dhatu, tada etat samanya karyam ashritya karyani kriyante. Tena pratyaya nimittam anga karyam bhavati. Okay. So that is all about the pratyaya nimitta anga karya. Once we do that, finally we have the sandhi and tripadi. Sandhi karyani. Tatra atsandhayaha sapta. Yan sandhihi ikoyanachi ityanena. Yantavanta deshaha. Echo ayavayavaha. Adgunaha iti gunaha. Vriddhirechi athava atascha iti vriddhihi. Usyapadantat. Apadantat usipare pararupam bhavati. Ato gune. Adantadangat gune parataha pararupam bhavati. Akasavarne dirkaha. Abhipurvaha iti purvarupam. Samprasaranaccha ityanena. Samprasarana dachipare purvarupam. So these sutras you should always remember for ach sandhi. Okay. So you have the yan, yantavanta desha, guna, vriddhi, pararupa, savarna dirgha and purvarupa. These are the sandhi karyas which happen in the sapada saptadhyayi. These are all the ach sandhis. Okay. So yadi etesham sandhinam avakashaha asti tarhi sandhihi kartavyaha. Ante tripadi karyani santi. So tripadyam, there is one set of hal sandhis from age 223 to age 241. Okay. So you can look at this starting from sanyogantasya lopa till shadhoh kasi. Okay. So this is one set of hal sandhis, very, very useful in all general cases. Okay. So these are not specific to any dhatu. Sarvesham dhatunam etani karyani bhavanti, kani chana karyani sutrani idanim upayuktani, anyani ardhadhatuka prakarane upayujyante. Okay. There are some which we have not seen so far, like say itayiti or rasvadangat, etc. But most of them we have already studied. The jhalo jhali, dhicha, skosanyogadyorantecha, chokkuhu, hodhaha, dadherdhatorkhaha. All these we have seen. Vraschabhrasja, ekacho vashobhash, dathastathoshcha, jhalamjashonte, jhashastathordhodhaha, and chathokkasti. So most of the sutras we have studied. So these sutras you should be conversant. Halsandhishu, etani sutrani, nishchayena adhyetavyani. Tataha rutvam, rutva prakarane, sasajisho ruhu ityasti, tena saha, tipyanastehe, sipidhato rurva, dascha. Yadi sakarantaha dhatuhu, tarhi, tipipare. So, it is only in case of langlakara that we use this. Langlakare, tipipare, dattvam bhavati, sipipare va rutvam. So, you'll end up with two forms in tip and three forms in sip. Okay. And then dascha yadi dhatuhu dakarantaha tadapi rutvam vikalpena bhavati. So these three sutras along with sasajushoruhu you have to remember for rutva. Tataha dirghaha rvor upadhaya dirghaikaha halicha upadhayancha ityetani trini sutrani upadhayam yadi repaha athava vakaraha asti tarhi dirghaha bhavati. Lopaha, dhodhe lopaha, dhakarasya dhakare pare lopaha. So we saw this in leadhaha, etc. Ledhi leadhaha lihanti. Dhakarasya hodhaha ityanena dhatve krute, dhodhe lopaha iti. Anuswara visargau, nashtapadantasya jhali ityanena anuswaraha, kharavasana yor visarjaniyaha. Shatvam, adesha pratyayoho ityanena, Shasi vasi ghasinamcha, shasa dhatoho, shasti shishtaha, shasati, tatra, shatvam bhavati, tripadi karyam. Natvam, rashabhyam nona samanapade, atkupvangnum yavayeti, ityanena natvam. And then the second set of hal sandhis. So these are again important. Stoshchunashchuhu, shtunashtuhu, jhalam jashchashi,
अभ्यासे चर्च खरी च वावसाने अनुस्वारस्य यये परसवर्णः झरो झरि सवर्णे इति लोपः. सो दीज आर अगेन कॉमन हल संधिस विच आर रिक्वायर्ड एट डिफरेंट प्लेसेस इन द प्रक्रिया. ओके, सो टू फिनिश ऑफ टू रैप अप द प्रक्रिया यू विल नीड बोथ द संधि सूत्रास एंड दीज. एतत् सर्वम् मेनली वॉट एवर इज इन दिस लिस्ट. So in this file, whatever are the sutras, they are all mostly the general sutras which you should always remember. Tena saha vishishya tattad dhatoho yat sutram tad yadi smaryate tarhi sarvadhatuka prakriyayam kopi kleshaha nasyat. Any questions? If there are no questions, we will stop here. So, this is the... Okay. Rav Mahodaya. Prashna Hastiva. Hello. Rav Mahodaya, Prashna Hastiva.
Can you hear me?
Yes, I can.
You can hear me?
Yeah, still.
Okay. I have a question I forgot what to ask. I don't know, just because I was using a headless phone, a wireless phone.
Oh, okay.
And you were not able to hear, so I switched to the wild phone, and suddenly I forgot what I wanted to ask you.
No problem.
My goodness.
No problem. You can always send an email later.
Yeah, right. I'll do that. Okay, sorry.
Yeah, no problem. Tinganta prakriyayaha sarvadhatuka khandaha atra samaptaha. सर्वेषां धातूनां सार्वधातुकलकारेषु रूपाणि अस्माभिः अधीतानि. अग्रे अर्धधातुकखण्डे अर्धधातुकलकारेषु कीदृशी प्रक्रिया भवति इति अध्येष्यामः. सो वी विल् डू दट् द अर्धधातुकखण्ड विन् गुड् क्वश्चन्. I don't know when exactly, but probably not for at least 2 to 3 months. Probably sometime in August. I will not be able to commit to a date right now, but definitely I'll do that, at least for myself. But probably after a couple of months. So since you are in the Vyoma Samskrita Pathashala, you will get a notification when we start it. So, hope to see all of you again in that. So if you have any questions in the Sarvadhatuka Khanda, feel free to email me at any time. It's this. So, I'll upload all these notes. So, notes and the materials whenever our site comes up. I'm sorry that our website is still down. There is some malware and we are trying to restore it, which has not yet worked. But as soon as the site is up, I'll put up the materials of the past few classes and, of course, this overview. So somebody asking what are suggestions to revise? I think if you have this overview document and the Dhatu Patha, you can go through each Gana one by one and see what is the special things for each Gana and what are the common things. And then try to practice. You don't even have to write. Even an oral practice is always very efficient. You know, time efficient and also useful. So if you can just go through the dhatu patha and try to guess the forms gana by gana, that should be fine to remember and, you know, to firm up whatever you have learned. Okay. So yes. Now.
Yeah. Now I sorry. Now I remember the question. Remember, I think sometime at the beginning of the course, sometime in either September or October 2014, you said you will try to get the permission from somebody who wrote a synopsis on the Itsanyas, and obviously, I don't know if you...
No, no, I got it. I seem to remember that I put it up in the website. I'm not sure. I'll check it out. If it is not there, I will upload it. I got that from him, the Idriveka. It's a PDF which summarizes the Itsanyas. So I'll upload it in the website when the website is
there. Yeah, it's not there. Definitely, I have looked for it just last week.
Okay.
But it's not there because that's going to give us the a lot of things, you know, like.
Oh yes, it's a very useful book section on it from yours. So I'll upload it in the website.
Okay. Thank you very much, and have a great summer. And hopefully, we'll hear from you around July. For the next session.
Yes, let us see. So as soon as possible, definitely I'll do it.
Okay.
So one last thing before we wrap up. So I think most of you would know, but just because we are doing it. So we are about our organization. So I'm a part of the, this is again, I think, malware infected. So, Vyoma Linguistic Labs Foundation, so that is our website, I hope all of you would have looked at it at least once, www.vyomalabs.in. So, we are a non-profit organization, we are trying for the, spread of Samskrita through technology. So, we have done a lot of, CDs and other tools for Samskrita learning. So we also run the Pathashala, which is the Vyoma Samskrita Pathashala. So please help us in whichever way you can. Okay. So since it is a non-profit organization, it survives only on the support of well-wishers like all of you. I know that personally many of you have contributed to Vyoma Samskrita Pathashala already. So whenever you have the time or the efforts, it can either be, monetary support, or if you have the time and you can volunteer for some projects or a technical expertise or different things, kindly do support us in whichever way you can so that we can continue the Pathashala and the other projects. So there are a lot of projects which we are working on currently. So hopefully our website is open soon, so you can get details of those in the website. So please support us in whichever way you can. Yes, Himanshu Mahoday.
Soumya ji, just a point I raised with you earlier also. It is not your thing, but I made a very small donation hoping to see the system working, in the sense put a direct deposit and get some acknowledgement that it has indeed reached you.
Okay,
but
you did not
get it. And
okay.
For any donation thing to work, it is very important that they acknowledge.
Yes.
Otherwise, I don't know whether it is your account or somebody else's account.
Correct. Yeah, I agree absolutely. I also seem to remember your follow-up mail, and I myself have forwarded it. Probably they might have missed it. I understand. I have I understand. It is very important. From our side, we may have constraints, but for the person who gives, it is very important to get back, because that's the only way we can hope to sustain it. Yes,
Because the bank fellow was so particular, he said any mistake in even the letter, not the number, even the letter account name, and it will go somewhere else.
Yes.
So I want to be absolutely sure.
Yes.
Before,
yeah, definitely. So we'll look into
but
it.
But anyway, you are doing a great job, so it should not be very difficult to raise funds. We are all there to help you.
Thank you. Thank you so much.
And we'll help you as much as we can. Please don't worry. Continue the good work.
Thank you. Thank you very much. Yes. Right. So there's a suggestion from the recent devices do not come with CD players. So alternate way to deliver the content. Yes. I mean, for all our later things, we are also doing, I mean, delivery through web portal. And we have a USB-based thing. So they are thinking of several other modes of delivery because, yes, as you said, CDs are also almost obsolete. Things are happening slowly. With everybody's support, we should be able to pull it through. Okay. So thank you very much, all of you. And, yeah, so we will see you all soon, hopefully. Okay. येनाक्षर समाम्नायम अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् धन्यवादः